अथ चतुर्थः पादः नौचङ्युपधाया ह्रस्वः नाग्लोपिशास्वृदिताम् भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम् लोपः पिबतेरीच्चाभ्यासस्य तिष्ठतेरित् जिघ्रतेर्वा उरुत् नित्यञ्छन्दसि दयतेर्दिगिलिटि ऋतश्च संयोगादेर्गुणः ऋच्छत्र्युताम् श्रुदृप्रां ह्रस्वो वा केणः न कपि आपोऽन्यतरस्याम् रुदृशोऽङिगुणः अस्य ते स्थुक् श्वयतेरः पतः पुं वच शीङः सार्वधातुके गुणः अयङ्यक्ङिति उपसर्गाध्रस्व ऊहतेः एतेर्लिङि अकृत्सार्वधातुकयोर्दीर्घः च्वौ च रीङ्तः रिंशयग्लिङ्क्षु गुणोर्तिसंयोगाद्योः यङि च ईघ्राध्मोः अस्य च्वौ क्यचि च अशनायोदन्यधनाया बुभुक्षा पिपासा गर्धेषु न छन्दस्य पुत्रस्य दुरस्युर्द्रविणस्युर्वृषण्यतिरिषण्यति अश्वाघस्यात् देवसुम्नयोर्यजुषि काठके कव्यध्वरपृतनस्यर्चिलोपः द्यतिस्यति मास्थामित्तिकिति शाच्छोरन्यतरस्याम् दधातेर्हिः जहातेश्चक्त्वि विभाषाच्छन्दसि सुधितवसुधितनेमधितधिष्वधिषीय च दोदद्घोः अच उपसर्गात्तः अपोभि सस्यार्धधातुके तासस्त्योर्लोपः रिच ह एति यीवर्णयोर्दीधीवेव्योः सनिमीमाघुरभलभशकपतपदाम च इस् आज्ञप्युधामीत् दम्भ इच्च मुचोकर्मकस्य गुणो वा अत्र लोपोऽभ्यासस्य ह्रस्वः हलादिशेषः शर्पूर्वाः खयः कुहोश्चुः नकवतेर्यङि कृशेश्छन्दसि दाधर्तिदर्धर्तिदर्धर्षि बो भूतु ते तिक्ते दर्श्यापनीफणत् संसनिष्यदत् करिक्रत् कनिक्रदत् भरिभ्रद्धविध्वतो दविद्युतत् तरित्रतः सरीसृपतम् वरीवृजन्मर्मृज्यागनीगन्तीति च उरत् द्युतिस्वाप्योः सम्प्रसारणम् व्यथो लिटि दीर्घ इणः किति अत आदेः तस्मान्नुड्विहलः अश्नोतेश्च भवतेरः ससूवेति निगमे निजाम् त्रयाणाम् गुणश्लौ भ्रुयामित् अर्तिपिपर्त्योश्च बहुलञ्छन्दसि सन्न्यतः ओः पुयञ्जपरे स्रवति शृणोति द्रवति प्रवति प्लवति च्यवतीनाम् वा गुणोऽयङ्लुकोः दीर्घोकितः నీగ్వంచుస్రంసు ధ్వంసు భ్రంసు కసపత పదస్కందాం నుగతో నునాసికాంతస్య జప జభదహ దశ భంజపశాంచ చరఫలోశ్చ ఉత్పరస్యాతః తిచ రీగృదుపధస్య చ రుగ్రికౌచ లుకి ఋతశ్చ సన్వల్లఘుని చం పరేన గ్లోపే దీర్ఘో లఘోః అస్మృదృత్వర ప్రథమ్రదస్తృస్పశాం విభాషావేష్టి చేష్ట్యోః ఈచ గణః ఇతి చతుర్థః పాదః ఇతి సప్తమోధ్యాయః.